ಪ್ರತಿಗುಂ ಹವಾಮಹೆ ಕವಿಂ ಕವೀನಾಮುಪಮಶ್ರವಸ್ತಮಂ ಜ್ಯೇಷ್ಠರಾಜಂ ಬ್ರಹ್ಮಣಾಂ ಬ್ರಹ್ಮಣಸ್ಪತ ಆನ ಶೃಣ್ವನ್ ನೋತಿಭಿಃ ಸೇದಸಾದನಂ ಪ್ರಣೋ ದೇವೀ ಸರಸ್ವತೀ ವಾಜೇಭಿರ್ ವಾಜಿನೀವತೀ ಧೀನಾಮವಿತ್ರಯವತೋ ಗಣೇಶಾಯ ನಮಃ ಸರಸ್ವತ್ಯೈ ನಮಃ ಶ್ರೀ ಗುರುಭ್ಯೋ ನಮಃ ಹರಿ ಓಂ ಓಂ ನಮೋ ಭಗವತೆ ರುದ್ರಾಯ ಓಂ ನಮಸ್ತೆ ರುದ್ರಮನ್ಯವ ಉತೋತ ಇಷವೇ ನಮಃ ನಮಸ್ತೆ ಅಸ್ತು ಧನ್ವನೆ ಬಾಹುಭ್ಯಾಮುತತೆ ನಮಃ ಯಾತ ಇಷು ಶಿವತಮಾ ಶಿವಂ ಬಭೂವತೆ ಧನು ಶಿವಾ ಶರವ್ಯಾಯಾತವತಯಾನೋ ರುದ್ರಮೃಡಯಾ ಯಾತೆ ರುದ್ರ ಶಿವಾ ತನುರಘೋರಾ ಪಾಪಕಾಶಿನಿ ತಯಾನಸ್ತನು ವಾಶಂತಮಯಾ ಗಿರಿಶಂತಾಭಿಚಾಕಷಿ ಯಾಮಿಷುಂ ಗಿರಿಶಂ ತಹಸ್ತೆ ಬಿಭರ್ಷ್ಯಸ್ತವೇ ಶಿವಾಂ ಗಿರಿತ್ರತಾಂ ಗುರು ಮಾಹಿಗುಂ ಶ್ರೀ ಪುರುಷಂ ಜಗತ್ ಶಿವೇನ ವಚಸಾ ತ್ವಾ ಗಿರಿಶಾಚ್ಛಾವದಾಮಸಿ ಯತಾನ ಸರ್ವಮಿಜ್ಜಗತ ಯಕ್ಷ್ವಗುಂ ಸುಮನಾ ಅಚತ್ ಅಧ್ಯವೋಚದಧಿವಕ್ತಾ ಪ್ರಥಮೋ ದೈವ್ಯೋಭಿಷಕ್ ಅಹೀಜಶ್ಚ ಸರ್ವಾಂಜಂಭಯನ್ ಸರ್ವಾಸ್ತಯಾತು ಧಾನ್ಯಃ ಅಸೌ ಯಸ್ತಾಮ್ರೋ ಅರುಣ ಉತ ಬಭ್ರೋಸ್ಸು ಮಂಗಳಃ ಯೇ ಚೇಮಾಗುಂ ರುದ್ರ ಅಭಿತೋ ದಿಕ್ಷಶ್ರಿತಾ ಸಹಸ್ರಶೋ ವೈಶಾಗುಂ ಹೇಡ ಈಮಹೇ ಅಸವ್ಯೋ ವಸತ್ಪತಿ ನೀಲಗ್ರೀವೋ ವಿಲೋಹಿತಃ ಉತೈನಂ ಗೋಪಾ ಅದೃಶನ್ನ ದೃಶನ್ನುದಹಾರ್ಯಃ ಉತೈನಂ ವಿಶ್ವಾಭೂತಾನಿ ಸದೃಷ್ಟೋ ಮೃಡಯಾತಿನಃ ನಮೋ ಅಸ್ತು ನೀಲಗ್ರೀವಾಯ ಸಹಸ್ರಾಕ್ಷಾಯ ಮೀಡುಷೇ ಅಧೋಗೇ ಅಸ್ಯ ಸತ್ವಾನೋಹಂ ತೇಭ್ಯೋ ಕರನ್ ನಮಃ ಪ್ರಮುಂಚ ಧನ್ವನಸ್ವಮುಭಯೋರಾತಿಯೋರ್ಜಾಂ ಯಾಶ್ಚ ತೇಹಸ್ತ ಇಷವ ಪರಾತಾ ಭಗವೋ ವಪಃ ಅವತತ್ಯ ಧನುಸ್ವಗುಂ ಸಹಸ್ರಾಕ್ಷಶತೇಷು ಧೇ ನಿಷೇಧ್ಯ ಶಲ್ಯಾಣಾಮುಖಾ ಶಿವೋ ನ ಸುಮನಾ ಭವ ವಿಜ್ಯಂ ಧನು ಕಪರ್ದಿನೋ ವಿಷಯೋ ಬಾಣವಾಗುಂ ಉತ ಅನೇಶನ್ನಸ್ಯೇಷವ ಆಭುರಸ್ಯ ನಿಷಂಗತಿಃ ಯಾತೆ ಹೇತಿರ್ಮೇಢುಷ್ಟಮಹಸ್ತೆ ಬಭೂವತೆ ಧನುಃ ತಯಾಸ್ಮಾನ್ ವಿಶ್ವತಸ್ತ್ವಮಯಕ್ಷ್ವಯಾ ಪರಿಭುಜ ನಮಸ್ತೆ ಅತ್ವಾಯುಧಾಯ ನಾತತಾಯ ದೃಷ್ಟವೇ ಉಭಾಭ್ಯಾಮುತತೆ ನಮೋ ಬಾಹುಭ್ಯಾಂ ತವ ಧನ್ವನೆ ಪರಿತೆ ಧನ್ವನೋ ಹೇತಿರಸ್ಮಾನ್ ಋಣಕ್ತು ವಿಶ್ವತಃ ಅಧೋ ಯ ಇಷುಧಿಸ್ತವಾರೇ ಅಸ್ಮನ್ನಿದೇಹಿತಂ ನಮಸ್ತೆ ಅಸ್ತು ಭಗವನ್ ವಿಶ್ವೇಶ್ವರಾಯ ಮಹಾದೇವಾಯ ತ್ರಯಂಬಕಾಯ ತ್ರಿಪುರಾಂತಕಾಯ త్రికాగ్నికాలాయ కాలాగ్నిరుద్రాయ నీలకంఠాయ మృత్యుం జయాయ సర్వేశ్వరాయ సదాశివాయ శ్రీమన్మహాదేవాయ నమః. నమో హిరణ్యబాహవే సేనాన్యే దిశాం చ పతయే నమో నమో వృక్షేభ్యో హరికేశేభ్యః పశూనాం పతయే నమో నమః. తస్మింజరాయ త్విషీమతే పదీనాం పతయే నమో నమో. బబ్లుషాయ వివ్యాధినేంద్రానాం పతయే నమో నమో. హరికేశాయోపవీతిమే పుష్టానాం పతయే నమో నమో. భవస్య హేత్యై జగతాం పతయే నమో నమో. రుద్రాయాతతావినే క్షేత్రాణాం పతయే నమో నమ. సూతాయ హంత్యాయ వనానాం పతయే నమో నమో. రోహితాయ సపతయే వృక్షాణాం పతయే నమో నమో. మంత్రిణే వాణిజాయ కక్షాణాం పతయే నమో నమో. భువంతయే వారివత్కృతాయౌషధీనాం పతయే నమో నమ. ఉచ్చైర్ఘోషాయ క్రందయతే పత్తీనాం పతయే నమో నమ. కృష్ణవీతాయ ధావతే సత్వనాం పతయే నమః. నమః సహమానాయ నివ్యాధిన ఆవ్యాధినీనాం పతయే నమో నమః. ककुभाय निषंगिने स्तेनानां पतये नमो नमो. निषंगिन इषु धिमते तस्करानां पतये नमो नमो. वञ्चते परिवञ्चते सायूनां पतये नमो नमो. निचेरवे परिचरायारण्यानां పతయే నమో నమ. శ్రీకావ్యభ్యో జిగావం సద్భ్యో ముష్టతాం పతయే నమో నమో. శ్రీమద్భ్యో నక్తం చరద్భ్యః ప్రకృంతానాం పతయే నమో నమ. ఉష్ణీషినే గిరిచరాయ కులుంజానాం పతయే నమో నమ. ఇషు మద్భ్యో తన్వారిభ్యశ్చ వో నమో నమ. ఆతన్వానేభ్య ప్రతిదధానేభ్యశ్చ వో నమో నమ. ఆయచ్చద్భ్యో విసృజభ్యశ్చ వో నమో నమోస్యద్భ్యో విద్యభ్యశ్చ వో నమో నమ. ఆసీనేభ్య శయానేభ్యశ్చ వో నమో నమ. స్వపద్భ్యో జాగ్రభ్యశ్చ వో నమో నమ. స్తిష్టద్భ్యో తావభ్యశ్చ వో నమో నమ. సభాభ్యః సభాపతిభ్యశ్చ వో నమో నమో. అశ్వేభ్యో అశ్వపతిభ్యశ్చ వో నమః. నమ ఆవ్యాధినేభ్యో వేధ్యంతేభ్యశ్చ వో నమో నమ. ఉగణాభ్యస్త్రియుం హతేభ్యశ్చ వో నమో నమో. గృత్సేభ్యో గృత్సపతిభ్యశ్చ వో నమో నమో. వ్రాతేభ్యో వ్రాతపతిభ్యశ్చ వో నమో నమో. గణేభ్యో గణపతిభ్యశ్చ వో నమో నమో. విరూపేభ్యో విశ్వరూపేభ్యశ్చ వో నమో నమో. మహద్భ్యః శుల్లకేభ్యశ్చ వో నమో నమో. రథిభ్యో రథేభ్యశ్చ వో నమో నమో. రథేభ్యో రథపతిభ్యశ్చ వో నమో నమ. సేనాభ్యః సేనానిభ్యశ్చ వో నమో నమః. శత్రుభ్యః సంగ్రహీతృభ్యశ్చ వో నమో నమః సక్షద్యోరథకారేభ్యశ్చ వో నమో నమః కులాలేభ్యః కర్మారేభ్యశ్చ వో నమో నమః పుంజిష్టేభ్యో నిషాదేభ్యశ్చ వో నమో నమః ఇషుకృద్భ్యో ధన్వకృద్భ్యశ్చ వో నమో నమో మృగయుభ్యశ్వనిభ్యశ్చ వో నమో నమః శ్వభ్యశ్వపతిభ్యశ్చ వో నమః నమో భవాయ చ రుద్రాయ చ నమః శర్వాయ చ పశుపతయే చ నమో నీలగ్రీవాయ చ శితికంఠాయ చ నమః కపర్దినే చ యుక్తకేశాయ చ నమః సహస్రాక్షాయ చ శతధన్వనే చ నమో గిరిశాయ చ శిబివిష్టాయ చ నమో మీడుష్టమాయ చేశువతే చ నమో హ్రస్వాయ చ వామనాయ చ నమో బృహతే చ వర్షీయసే చ నమో వృద్ధాయ చ సంవృద్ధ్వనే చ నమో అగ్ర్యాయ చ ప్రథమాయ చ నమః ఆశవే చాజిరాయ చ నమః శీఘ్రియాయ చ శీభ్యాయ చ నమః ఊర్భ్యాయ చావత్స్వన్యాయ చ నమః శ్రోతస్యాయ చ ద్వీప్యాయ చ నమో జ్యేష్ఠాయ చ కనిష్ఠాయ చ నమః పూర్వజాయ చ పరజాయ చ నమో మధ్యమాయ చ పగల్భాయ చ నమో జగన్యాయ చ బుద్ధ్యాయ చ నమః సోభ్యాయ చ ప్రతిసర్యాయ చ నమో యామ్యాయ చ క్షేమ్యాయ చ నమః ఉర్వర్యాయ చ ఖల్యాయ చ నమః శ్లోక్యాయ చ వసాన్యాయ చ నమో వన్యాయ చ కక్ష్యాయ చ నమః శ్రవాయ చ ప్రతిశ్రవాయ చ నమః ఆశుషేనాయ చాశురతాయ చ నమః శూరాయ చ వమిందతే చ నమో వర్మిణే చ వరుధినే చ నమో బిల్మినే చ కవచినే చ నమః శ్రుతాయ చ శ్రుతసేనాయ చ నమో దుందుభ్యాయ చ హనన్యాయ చ నమో ధృష్ణవే చ ప్రమృషాయ చ నమో దూతాయ చ ప్రహితాయ చ నమో నిషంగినే చేసుధిమతే చ నమః శీర్ష్యే చ వేచాయుధినే చ నమః స్వాయుధాయ చ సుధన్వనే చ నమః శ్రుత్యాయ చ పత్యాయ చ నమః కాట్యాయ చ నీప్యాయ చ నమః సోద్యాయ చ సరస్యాయ చ నమో నాద్యాయ చ వైషంతాయ చ నమః కోప్యాయ చ వట్యాయ చ నమో వర్ష్యాయ చ నమో మేధ్యాయ చ విద్యుత్యాయ చ నమః ఈత్రియాయ చ తప్యాయ చ నమో వాత్యాయ చ రేష్మియాయ చ నమో వాస్తవ్యాయ చ వాస్తుపాయ చ ఓం హర 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 ఓం నమః సోమాయ చ రుద్రాయ చ నమః తామ్రాయ చారుణాయ చ నమః శంగాయ చ పశుపతయే చ నమః ఉగ్రాయ చ భీమాయ చ నమః అగ్రేవదాయ చ దూరేవదాయ చ నమో అంత్రే చ హనీయతే చ నమో వృక్షేభ్యో హరికేశేభ్యో నమస్తారాయ నమః శంభవే చ మయోభవే చ నమః శంకరాయ చ మయస్కరాయ చ నమః శివాయ చ శివతరాయ చ నమః స్తీర్థ్యాయ చ కూల్యాయ చ నమః పార్థ్యాయ చ వార్థ్యాయ చ నమః ప్రతరణాయ చోత్తరణాయ చ నమః ఆత్మాద్యాయ చ లాద్యాయ చ నమః చష్ప్యాయ చ భేణ్యాయ చ నమః స్వికత్యాయ చ ప్రవాహ్యాయ చ నమ ఇరిణ్యాయ చ ప్రపత్యాయ చ నమః కిగుంశిలాయ చ క్షయనాయ చ నమః కపర్దినే చ పులస్తయే చ నమో గోష్ట్యాయ చ గృహ్యాయ చ నమః స్తల్ప్యాయ చ గేహ్యాయ చ నమః కాట్యాయ చ గవరేష్టాయ చ నమో హృదయ్యాయ చ నివేష్ప్యాయ చ నమః పాగుంసవ్యాయ చ రజస్యాయ చ నమః శుష్క్యాయ చ హరిత్యాయ చ నమో లోప్యాయ చోలప్యాయ చ నమః ఊర్ధ్యాయ చ సూర్మ్యాయ చ నమః పర్ణ్యాయ చ పర్ణశద్యాయ చ నమో పగురమాణాయ చ విఘ్నతే చ నమః ఆఖిదతే చ ప్రఖిదతే చ నమో వక్కిరికేభ్యో దేవానాగం హృదయేభ్యో నమో విక్షీణకేభ్యో నమో విచిన్వత్కేభ్యో నమ ఆనిర్హతేభ్యో నమ ఆమీవత్కేభ్యః ద్రావే అంధ్రతస్పతే దరిద్రన్నీలలోహితాయ్ ఏషాం పురుషాణామేషాం పశూనాం మాభేర్మా రోమో ఏషాం కించ నామమత్ యాతే రుద్ర శివా తనో శివా విశ్వాః భేషజే శివా రుద్రస్య భేషజే తయానో మృడ జీవసే ఇమాగుం రుద్రాయ తవసే కపర్దినే క్షయద్వీరాయ ప్రవరామహే మతిం యథా నశ్యమసత్విపదే చతుష్పదే విశ్వం పుష్టం గ్రామే అస్మిన్ననాదురం మృడానో రుద్రోతనోమయస్కృతి క్షయద్వీరాయ నమసా విధేమతే యచ్చం చయోశ్చ మనురాయజే పితా తదశ్యామతవ రుద్ర ప్రణీతో మానో మహాంతముతమానో అర్భకం మాన ఉక్షంతముతమాన ఉక్షితం మానో వదే పితరం మోత మాతరం ప్రియామానస్తనువో రుద్రరీరిషః మానస్తోకేతన ఏ మాన ఆయుషి మానో గోషు మానో అశ్వేషురీరిషః వీరాన్ మానో రుద్రభావితో వదే అవిష్మంతో నమసా విధేమతే ఆరాత్తే గోగ్న ఉత పూరుషగ్నే క్షయద్వీరాయ సుం నమస్మేతే అస్తు రక్షాచనో అధి చ దేవ ప్రోగ్యతా చ న శర్మ యచ్చ ద్విపర్హాః స్తుహి శ్రుతం గత్త సదం యువానం మృగన్న భీమముపహత్తముగ్రం మృడా చ రుద్రే రుద్రస్తవానో అన్యంతే అస్మన్నివ పంతు సేనాః పరిణో రుద్రస్య హేతుర్విడక్తు పరి ద్వేషస్య దుర్మతిరఘాయో అవస్థిరా మగవద్యస్తనుష్వమీరుస్తోకాయతనయాయ మృడయా మీరుష్టమ శివతమ శివో నః సుమనా భవ పరమే వృక్ష ఆయుధం నిధాయ కృత్యం వసానమాచర పినాకం బిభ్రదాగహే విగిరిత విలోహిత నమస్తే అస్తు భగవః यास्ते सहस्रगुं हेतयोन्यमस्मन्निवपन्तु ताः सहस्राणि सहस्रदा बाहुवोस्तव हेतयः तासामीशानो भगवः पराचीनामुखाकृति सहस्राणि सहस्रशो ये रुद्राभिभूम्या पेशागुं सहस्रयोजने वधन्वानि तन्मसि अस्मिन् महत्यर्नवेऽन्तरिक्षे भवा अधि नीलग्रीवाचितिकण्ठा सर्वा अधः क्षमाचराः नीलग्रीवाशितिकण्ठादिवगुम् रुद्रा उपश्रिताः ये वृक्षेषु सस्तिञ्जरा नीलग्रीवा विलोहिताः ये भूतानामधिपतयो विशिकासः कपर्दिनः ये अन्येषु विविद्यन्ति पात्रेषु विपदो जनान् ये पथाम् पदिरक्षय ऐलभृतायव्युधः ये तीर्थानि प्रचलन्ति शृगावन्तो निषङ्गिनः य एतावन्तश्च भूयागुंसश्च दिशो रुद्रावितस्तिरे तेषागुं सहस्रयोजने वधन्वानि तन्मसि नमो रुद्रेभ्यो ये पृथिव्याम् येऽन्तरिक्षे ये दिवि ये चामन्नम् वातो वर्षमिषवस्तेभ्यो दश प्रादेर्दश दक्षिणा दश प्रतिचेर्दशोदेचेर्दशोर्ध्वास्तेभ्यो नमस्ते नो मृणयन्तु तेयम् विश्वो यश्च नो द्वेष्टितम् भोजम् दधामि त्र्यम्बकम् यजामहे सुगन्धिम् पुष्टिवर्धनम् उर्वारुकमिव वन्दनान् मृत्योर्मुक्षीयमामृतात् यो रुद्रो अग्रव्यो अप्सु योषधीषु यो रुद्रो विश्वभुवना विवेश तस्मै रुद्राय नमो अस्तु एते सहस्रमयुतम् पाशा मृत्यो मर्त्याय हन्तवे तान्यज्ञस्य मायया सर्वानवयजामहे मृत्यवे स्वाहा मृत्यवे स्वाहा प्राणानाम् ग्रन्थिरसि रुद्रो मा विशान्तकः तेनाप्यायस्वा नमो रुद्राय विष्णवे मृत्युर्मे पाहि तमस्तु हि यत्स्वशस्वधन्वायो विश्वस्य क्षयति भेषजस्य यक्ष्वा महेशो मनसाय रुद्रम् नमो भिर्देवमसुरम् दुवस्य अयम् मे अस्तो भगवानयम् मे भगवत्तरः अयम् मे विश्वभे सजो यगु शिवाभिमर्षणः ॐ शान्ति शान्ति शान्तिः ग्ना विष्णो सजोषसेवावर्धन्तु वाङ्गिरः द्युम्नैर्वाजेभिरागतम् वाजश्च मे प्रसवश्च मे प्रयतिश्च मे प्रसितिश्च मे धीतिश्च मे क्रतुश्च मे स्वरश्च मे श्लोकश्च मे श्रावश्च मे श्रुतिश्च मे ज्योतिश्च मे शुभश्च मे प्राणश्च मे प्राणश्च मे ध्यानश्च मे सुश्च मे चित्तम् च माधीतम् च मे वाक्च मे मनश्च मे चक्षुश्च मे श्रोत्रम् च मे दक्षश्च मे बलम् च मओजश्च मे सहश्च म आयुश्च मे जरा च म आत्मा च मे तरोश्च मे शर्म च मे वर्म च मे गानि च मे स्थानि च मे परोगुंषि च मे शरीराणि च मे ज्येष्ठ्यं च माधिपत्यं च मे मन्योश्च मे भामश्च मे मश्च मे भश्च मे जेमा च मे महिमा च मे वरिमा च मे प्रतिमा च मे वर्ष्मा च मे द्रागुया च मे वृद्धं च मे वृद्धिश्च मे सत्यं च मे श्रद्धा च मे जगच्च मे धनं च मे वशश्च मे त्विशिश्च मे क्रीडा च मे मोदश्च मे चातं च मे जनिष्यमानं च मे सूक्तं च मे सुकृतं च मे वित्तं च मे वेद्यं च मे भूतं च मे भविष्यच्च मे सुगं च मे सुपथं च मरुद्धं च मरुद्धिश्च मे कृप्तं च मे कृप्तिश्च मे मतिश्च मे सुमतिश्च मे शं च मे मयश्च मे प्रियं च मे नो कामश्च मे कामश्च मे सौमनसश्च मे भद्रं च मे श्रेयश्च मे वस्यश्च मे यशश्च मे भगश्च मे द्रविणं च मे यन्ता च मे धर्ता च मे क्षेमश्च मे धृतिश्च मे विश्वं च मे महश्च मे संविच्च मे ज्ञात्रं च मे सोश्च मे प्रसोश्च मे शीरं च मे लयश्च मरुतं च मे मृतं च मे यक्ष्मं च मे नामयच्च मे जीवातुश्च मे दीर्घायुत्वं च मे न मित्रं च मे भयं च मे सुगं च मे शयनं च मे सोषा च मे सुदिनं च मे ऊर्च मे सोनृता च मे पयश्च मे रसश्च मे घृतं च मे मधु च मे सग्निश्च मे सपेतिश्च मे कृषिश्च मे वृष्टिश्च मे जैत्रं च मौद्भिद्यं च मे रयिश्च मे रायश्च मे पुष्टं च मे पुष्टिश्च मे विभु च मे प्रभु च मे बहु च मे भूयश्च मे पूर्णं च मे पूर्णतरं च मे क्षितिश्च मे कूयवाश्च मे नं च मे क्षुच्च मे ऋहयश्च मे यवाश्च मे माशाश्च मे तिलाश्च मे मुद्गाश्च मे कल्वाश्च मे गोधूमाश्च मे मसुराश्च मे प्रियङ्गवश्च मे नवश्च मे श्यामाकाश्च मे निवाराश्च मे अश्मा च मे मृत्तिका च मे गिरयश्च मे पर्वताश्च मे सिकताश्च मे वनस्पतयश्च मे हिरण्यं च मे यश्च मे सीतं च मे तपुश्च मे श्यामं च मे लोहं च मे अग्निश्च मापश्च मे विरुधश्च मौषधयश्च मे कृष्टपच्चं च मे कृष्टपच्चं च मे ग्राम्याश्च मे पशव आरण्याश्च यज्ञेन कल्पन्तां वित्तं च मे वित्तिश्च मे भूतं च मे भूतिश्च मे वसु च मे वसतिश्च मे कर्म च मे शक्तिश्च मे अर्धश्च म एवश्च म इतिश्च मे गतिश्च मे अग्निश्च म इन्द्रश्च मे सोमश्च म इन्द्रश्च मे सविता च म इन्द्रश्च मे सरस्वती च म इन्द्रश्च मे पूषा च महेन्द्रश्च मे बृहस्पतिश्च महेन्द्रश्च मे मित्रश्च महेन्द्रश्च मे वरुणश्च महेन्द्रश्च मे त्वष्टा च महेन्द्रश्च मे धाता च महेन्द्रश्च मे विष्णुश्च महेन्द्रश्च मेष्विनौ च महेन्द्रश्च मे मरुतश्च महेन्द्रश्च मे विश्वे च मे देवा इन्द्रश्च मे पृथिवी च महेन्द्रश्च मेऽन्तरिक्षम् च महेन्द्रश्च मे द्यौश्च महेन्द्रश्च मे दिशश्च महेन्द्रश्च मे मूर्धा च महेन्द्रश्च मे प्रजापतिश्च महेन्द्रश्च मे अगुंसुश्च मे रश्मिश्च मे दाभ्यश्च मे धिपतिश्च म उपागुंसुश्च मे अन्तर्यामश्च महेन्द्रवायवश्च मे मैत्रावरुणश्च म अश्विनश्च मे प्रतिप्रस्थानश्च मे शुक्रश्च मे मन्दे च म आक्रयणश्च मे वैश्वदेवश्च मे ध्रुवश्च मे वैश्वानरश्च मरुतुग्राहाश्च मेति ग्राह्याश्च महेन्द्राग्नश्च मे वैश्वदेवश्च मे मरुत्वदीयाश्च मे माहेन्द्रश्च महादित्यश्च मे सावित्रश्च मे सारस्वतश्च मे पौष्णश्च मे पात्रीवतश्च मे हार्योजनश्च मे इद्मश्च मे बर्हिश्च मे वेदिश्च मे धिष्ण्याश्च मे शुचश्च मे चमसाश्च मे द्रावाणश्च मे स्वरवश्च म उपरवाश्च मे दिशवने च मे द्रोणकलशश्च मे वायव्यानि च मे पूतभृच्च म आधवनीयश्च म आग्नेर्धनम् च मे हविर्धानम् च मे गृहाश्च मे सदश्च मे पुरोडाशाश्च मे पचताश्च मे वभृतश्च मे स्वगाकारश्च मे अग्निश्च मे घर्मश्च मेऽर्कश्च मे सूर्यश्च मे प्राणश्च मे श्वमेधश्च मे पृथिवी च मे दितिश्च मे दितिश्च मे द्यौश्च मे शक्वरीरङ्गुलयो दिशश्च मे यज्ञेन कल्पम् ताम्रश्च मे साम च मे स्तोमश्च मे यजुश्च मे दीक्षा च मे तपश्च मरुतुश्च मे व्रतम् च मे होरात्रयोर्वृष्ट्या बृहद्रदन्तरे च मे यज्ञेन कल्पेता गर्भाश्च मे वत्साश्च मे त्रयविश्च मे त्रयवे च मे दित्यवाच्च मे दित्यौहे च मे पञ्चाविश्च मे पञ्चावे च मे त्रिवत्सश्च मे त्रिवत्सा च मे तुर्यवाच्च मे तुर्यौहे च मे पष्टवाच्च मे पष्टौहे च म उक्षा च मे वशा च मऋषभश्च मे वेहश्च मे नड्वाञ्च मे धेनुश्च म आयुर्यज्ञेन कल्पताम् प्राणो यज्ञेन कल्पतामपानो यज्ञेन कल्पताम् यानो यज्ञेन कल्पताम् चक्षुर्यज्ञेन कल्पता गुश्रोत्रम् यज्ञेन कल्पताम् मनो यज्ञेन कल्पताम् वाग्यज्ञेन कल्पताम् आत्मा यज्ञेन कल्पताम् यज्ञो यज्ञेन कल्पताम् एका च मे तिस्रश्च मे पञ्च च मे सप्त च मे नव च म एकादश च मे त्रयोदश च मे पञ्चदश च मे सप्तदश च मे navadasa chama eka vigumsadeschami, trayo vigumsadeschami, pancha vigumsadeschami, sapta vigumsadeschami, nava vigumsadeschama eka trigumsadeschami, trayastrigumsadeschami, chatasrasadeschami, shauchami, dvadasa chami, shodasa chami, vigumsadeschami, chaturvigumsadeschami, stavigumsadeschami, dvatrigumsadeschami, shatrigumsadeschami, chatvarigumsadeschami, chatuschatvarigumsadeschami, stachatvarigumsadeschami, vajascha prasavascha, pijascha kratuscha suvascha bhurdhacha, vyatneyaschantyayanaschantyascha bhau, vanascha bhavanascha dhipatischa, इरादेवहुर्मनुर्यज्ञनिर्बृहस्पतिरुक्थामदानिशगुंसिषद्विश्वे देवासूर्तवाच पृथिवीमातर्मामाहिगुंसिर्मधुमनिष्ये मधुजनिष्ये मधुवक्ष्यामि मधुवदिष्यामि मधुमतीम् देवेभ्यो वाचमुद्यासगुम् शुश्रूषेण्याम् मनुष्येभ्यस्तम् मा देवा अवन्तु शोभायै पितरोऽनुमदन्तु ॐ शान्ति शान्ति शान्तिः ॐ तच्छय्योरावृणीमहे गातुम् यज्ञाय गातुम् यज्ञपतये दैवी स्वस्तिरस्तु नः स्वस्तिर्मानुषेभ्यः ऊर्ध्वम् जिगातु भेषजम् शन्नो अस्तु द्विपदे शं चतुष्पदे ॐ शान्ति शान्ति शान्तिः सहस्रशीरुषा पुरुषः सहस्राक्षत् सहस्रपात् स भूमिम् विश्वतो वृत्वा अत्यतिष्ठद्दशाङ्गुलम् पुरुष एवेदगुम् सर्वम् यद्भूतम् यच्च भव्यम् उतामृतत्वस्येषानः यदन्नेनातिरोहति एतावानस्य महिमा अतो ज्यायागश्च पुरुषः पादोऽस्य विश्वाभूतानि त्रिपादस्यामृतम् दिवे त्रिपादोर्ध्व उदैत्पुरुषः पादोऽस्येहाभवात् पुनः ततो विश्वम् व्यक्रामत् साशनानशने अभि तस्मात् विराडजायत विराजो अधिपुरुषः स जातो अत्यरिच्यत पश्चाद्भूमिमतो पुनः यत्पुरुषेण हविषा देवा यज्ञमतन्वत वसन्तो अस्यासीदाज्यम् ग्रीष्म यद्म शरद्धविः सप्तास्यासन् परिधयः त्रिसप्त समिध कृताः देवा यज्ञज्ञम् तन्वानाः अबध्नन् पुरुषम् पशुम् तम् यज्ञम् वर्हिषि प्रोक्षन् पुरुषम् जातमग्रतः तेन देवा अयजन्त साध्यारुषयश्च ये तस्माद्यज्ञात् सर्वभूतः सम्भृतम् प्रशताज्यम् पशोगस्तागश्चक्रे वायव्यान् आरण्यान् ग्राम्याश्च ये तस्माद्यज्ञात् सर्वभूतः रुचः सामानि जग्निरे छन्दागुंसि जग्निरे तस्मात् यजुस्तस्मादजायत तस्मादश्वा अजायन्त एके चोभयादतः गावोह जग्निरे तस्मात् तस्माज्जाता अजावयः यत्पुरुषम् व्यदधुः कदिधा व्यकल्पयन् मुखम् किमस्य कौ बाहु कावूरूपादा उच्येते ब्राह्मणोऽस्य मुखमासीत् बाहुराजन्यकृतः ओरो तदस्य यद्वैष्यः पद्भ्यागुम् शूद्रो अजायत चन्द्रमा मनसो जातः चक्षुः सूर्यो अजायत मुखादिन्द्रश्चाग्निश्च प्राणात्वायुरजायत नाभ्या आसीदन्तरिक्षम् शीर्षोद्यौ समवर्तत पद्भ्याम् भूमिर्दिशश्रोत्रात् तथा लोकागुम् अकल्पयन् वेदाहमेतम् पुरुषम् महान्तम् आदित्यवर्णम् तमसस्तु पारे सर्वाणि रूपाणि विचित्य धीरः नामानि कृत्वाभिवदन्यदास्ते धाता पुरस्ताद्यमुदा जहार शक्रप्रविद्वान् प्रदिशश्च तस्रः तमेवम् विद्वानमृत इह भवति नान्यपन्था अयनाय विद्यते यज्ञेन यज्ञमयजन्त देवाः तानि धर्माणि प्रथमान्यासन् देहनाकम् महिमानः सजन्ते यत्र पूर्वे साध्या सन्ति देवाः अद्भ्यः सम्भूत पृथिव्यैरसा च विश्वकर्मणः समवर्तताति तस्य त्वष्टा विदधद्रूपमेति तत्पुरुषस्य विश्वमायानमग्रे वेदाहमेतम् पुरुषम् महान्तम् आदित्यवर्णम् तमसः परस्तात् तमेवम् विद्वानमृत इह भवति नान्यः पन्था विद्यते अनाय प्रजापतिट्टरति गर्भे अन्तः अजायमानो बहुधा विजायते तस्य धीरा परिजानन्ति योनिम् मरीचीनाम् पदमिच्छन्ति वेधसः यो देवेभ्य आतपति यो देवानाम् पुरोहितः पूर्वो यो देवेभ्यो जातः नमो रुचाय ब्राह्मये रुचम् ब्राह्मम् जनयन्तः देवा अग्रे तदब्रुवन् यत्त्वैवम् ब्राह्मणो विद्यात् तस्य देवा असन्मषे क्रेष्यते लक्ष्मीश्च पत्यौ अहोरात्रे पार्श्वे नक्षत्राणि रूपम् अश्विनौ व्यात्तम् इष्टम् मनिषाणा अमुम् मनिषाणा सर्वम् मनिषाणा तच्चैयो रात्रिणीमहे गातुम् यज्ञाय गातुम् यज्ञपतये दैवे स्वस्तिरस्तु नः स्वस्तिर्मानुषेभ्यः ऊर्ध्वं जगातो भेषजं शन्नो अत्वद्विपदे शं चतुष्पदे ॐ शान्ति शान्ति शान्तिः ॐ नातो न इन्द्रक्षुमन्तम् चित्रम् ग्राभम् सङ्गृभाग्य मगाहस्ते दक्षिणेन विद्माहित्वा तु विकूर्मिम् तु विदेष्णम् तु विमघम् तु विमात्रमवोभिः न हि त्वा चूरदेवा नमर्ता सो दित्सन्तम् भीमम् नगाम् वारयन्ते एतोन्निन्द्रम् सवामेशानम् वस्वस्वराजम् नराधसामर्धिषन्नः प्रस्तोषदुपगाधिशत्रभत्सामगीयमानम् अभिराधसा जुगुरत् आनो भरदक्षिणेनाभिसव्येन प्रमृषा इन्द्रमानो वसो निर्भाक् उपक्रमस्वाभरदृशदादृष्णो जनानाम् अदाशोष्टरस्य वेदः इन्द्रय उनुते अस्ति वाजो विप्रेभिः सनित्वः अस्माभिः सुतम् तनुहे सद्यो जुवस्ते वाजा अस्मभ्यम् विश्वश्चन्द्राः वशेश्च मक्षोजरन्ते गणानाम् त्वाम् गणपतिम् हवामहे कविम् कवीनामुपमश्रवस्तमम् ज्येष्ठराजम् ब्रह्मणाम् ब्रह्मणस्पद आन शृण्वन्नोतिभिः सेदसादनम् निषुषेदगणपते गणेषु त्वामाहुर्विप्रथमम् कवीनाम् न ऋते त्वत्क्रियते किञ्चनारे महामर्कम् मघवन् चित्रमर्च अभिख्यानो मघवन्नाधमानान् सखे वो दिवसुपते सखेनाम् रणम् कृतिरणकृत्सत्यचुष्मा भक्ते चिदा भजा रागे अस्मान् ॐ शान्ति शान्ति शान्तिः ॐ देवस्य त्वा सवितुः प्रथवे अश्विनोर्बाहुभ्याम् पूष्णाहस्ताभ्याम् अश्विनोर्भैषज्येन तेजसे ब्रह्मवर्चसा याभिषिञ्चामि देवस्य त्वा सवितुः प्रथवे अश्विनोर्बाहुभ्याम् पूष्णोहस्ताभ्याम् सरस्वत्यै वैषज्येन वेव्याज्ञानाद्यायाभिषिञ्चामि देवस्य त्वा सवितुः प्रथवे अश्विनोर्बाहुभ्याम् पूष्णोहस्ताभ्याम् इन्द्रस्येन्द्रियेण श्रियै यशसे बलायाभिषिञ्चामि देवस्य त्वा सवितुः प्रथवे अश्विनोर्बाहुभ्याम् पूष्णोहस्ताभ्यागम् सरस्वत्ये वाचो यन्तुर्यन्त्रेणाग्ने त्वा साम्रा राज्येनाभिषिञ्चामि इन्द्रस्य त्वा साम्राज्येनाभिषिञ्चामि बृहस्पतेस्त्व साम्राज्येनाभिषिञ्चामि आयुराशास्ते सुप्रजास्त्वमाशास्ते सजातवनस्यामाशास्ते उत्तरां देवयज्ञामाशास्ते भूयो हविष्करणमाशास्ते दिव्यं धामाशास्ते विश्वं प्रियमाशास्ते यदनेन हविषास्ते तदस्यात्तदृद्याद् तदस्मै देवादासन्दाम् द्रुपदादिवेन मुमुचानः शृण्णस्नात्वे मलादिवा पूतम् पवित्रेणे वाज्यम् आपश्युन्दन्तुमैनसः भूर्भुवत्सु 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 वः ॐ शान्ति शान्ति शान्तिः ॐ पूर्णमदः पूर्णमिदम् पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॐ शान्ति शान्ति शान्तिः ॐ एषा वास्यमिदगुम् सर्व यत्किञ्च जगत्या जगत् तेन त्यक्तेन भुञ्जेधामागृह कस्य सिद्धनम् कुर्वन्नेवेह कर्माणि जिजे विशेच्छतगुम् समाः एवम् त्वयि नान्यते दोऽस्ति न कर्म लिप्यते नरे असुर्यानामते लोका अन्धे न तमसा वृताः तागस्ते प्रेत्याभिगच्छन्ति एके च आत्महनो जनाः अने जदेकम् मनसो जवे यो नैन देवा आप्नुवन् पूर्वमर्षत् तद्धावतो ज्ञानत्ये तिष्ठ तस्मिन् नभो मा तरिष्वा दधाते तदे जति तन्ये जति तद्दूरे तद्वन्तिके तदन्तरस्य सर्वस्य तदु सर्वस्यास्य वाक्यतः यस्तु सर्वाणि भूतान्यात्मन्येवानुपश्यते सर्वभूतेषु चात्मानम् ततो न विजुगुप्सते यस्मिन् सर्वाणि भूतान्यात्मैवाभूत्विजानतः तत्र को मोहकशोक एकत्वमनुपश्यतः सपर्यगाच्छुक्रमकायमव्रणमस्नाभिरगुम् शुद्धमपापविद्धम् कविर्मनीषे परिभोः स्वयम् भूर्यात् तथ्यथोऽर्थाव्यदधाच्छाश्वतेभ्य समाभ्यः अन्धम् तमः प्रविशन्ति ये विद्यामुपासते ततो भूय इव ते तमोयौ विद्यायागुम् रताः अन्यदेवाहुर्विद्यया अन्यदा गुरविद्यया इति सुश्रुमधीरा नाम्येनस्तद्विच चक्षिरे विद्यां च विद्यां च यस्तद्वेदो भयगुंसः अविद्यया मृत्युम् तीर्त्वा विद्यया मृतमश्नुते अन्धम् तमः प्रविशन्ति ये सम्भूतिमुपासते ततो भूय इव ते तमोयौ सम्भूत्यागुम् रताः अन्यदेवाहुः सम्भवादन्यदाहुरसम् भवाद् इति शुश्रुमधीराणाम् येन स्तद्विच चक्षिरे सम्भूतिम् च विनाशम् च यस्तद्वेदो भयगुंसः विनाशेन मृत्युम् तीर्त्वा सम्भूत्यामृतमश्नुते हिरण्मयेन पात्रेण सत्यस्यापि हितम् मुखम् तत्त्वम् पोषन्न पावृणु सत्यधर्माय दृष्टये पोषन्ये कर्षेयमसूर्य प्राजापत्य यो हरस्मिन् समोहतेजो यत्ते रूपम् कल्याणतमम् तत्ते पश्यामि योऽसावसौ पुरुषः सोऽहमस्मि वायुरनिलममृतमदेदम् भस्मान्तगुम् शरीरम् ॐ क्रतोस्मर कृतगुस्मर क्रतोस्मर कृतगुस्मर अग्नेनय सुपथा राये अस्मान् विश्वानि देव वयुनानि विद्वान् युयोध्यस्मज्जुहुराणमेनो भूयिष्ठाम् ते नम उक्तिम् विधेम ॐ पूर्णमद पूर्णमिदम् पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॐ शान्ति शान्ति शान्तिः राजाधिराजाय प्रसह्यसाहिले नमो वयम् वै श्रवणाय कुर्महे समेकामान् कामकामाय मह्यम् कामेश्वरो वै श्रवणो ददातु कुबेराय वै श्रवणाय महाराजाय नमः ॐ तद्ब्रह्मा ॐ तद्वायुः ॐ तदात्मा ॐ तत्सत्यम् ॐ तत्सर्वम् ॐ तत्पुरोर्नमः अन्तश्चरति भूतेषु गुहायाम् विश्वमूर्तिषु त्वम् यज्ञस्त्वम् वषट्कारस्त्वमिन्द्रस्त्वगुम् रुद्रस्त्वम् विष्णुस्त्वम् ब्रह्म त्वम् प्रजापतिः त्वम् तदाप आपो ज्योतिरसोऽमृतम् ब्रह्मभूर्भुवत्सुवरो ईशानः सर्वविद्यानामीश्वरः सर्वभूतानाम् ब्रह्माधिपति ब्रह्मणोऽधिपति ब्रह्मा शिवो मे अस्तु सदा शिवो तद्विष्णोर्परमम् पदगम् सदा पश्यन्ति सूरयः दिवि वचक्षुरातम् तद्विप्रासो विपन्यवो जाग्रुवागुम् सत्समिन्दते विष्णोर्यत्परमम् पदम् नारायणाय विद्महे वासुदेवाय धीमहि तन्नो विष्णुप्रचोदयात् तत्पुरुषाय विद्महे महादेवाय धीमहि तन्नो रुद्र प्रचोदयात्। ओम साहेश्वराय विद्महे सत्यदेवाय धीमहि तन्नः सर्व प्रचोदयात्। हंस हंसाय विद्महे परमहंसाय धीमहि तन्नो हंस प्रचोदयात्। स्वस्ति प्रजाभ्यः परिपालयन्ताम् न्यायेन मार्गेण महेर्महेशाः गोब्राह्मणेभ्यः शुभमस्तु नित्यम् समस्तलोकाः सुखिनो भवन्तु समस्तलोकाः सुखिनो भवन्तु समस्तलोकाः सुखिनो भवन्तु। ॐ शान्ति शान्ति।